त्रयोदशोऽध्याय सहज स्वरूपात्मनिष्ठायाम् अविच्छिन्न निर्विकल्पानन्दानुभूतिमास्वाद्य गायति जनकः। जनक उवाच अकिञ्चन भवम् स्वास्थ्यम् कौपीनत्वेऽपि दुर्लभम् त्यागादानी विहायास्माद् अहमासे यथा सुखम्। कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खिद्यते मनः कुत्रापि तत्यक्त्वा पुरुषार्थे स्थितः सुखम्। कृतम् किमपि नैव स्याद् इति सञ्चिन्त्य तत्त्वतः यदा यत्कर्तुमायाति तत्कृत्वा से यथा सुखम्। कर्म नैष्कर्म्य निर्बन्धभावादेहस्थयोगिनः संयोगायोगविरहाद् अहमासे यथा सुखम्। अर्थानर्थौ न मे स्थित्याम् गत्या न शयनेन वा तिष्ठन् गच्छन् स्वपन् तस्मात् अहमासे यथा सुखम्। स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा नाशोल्लासौ विहायास्माद् अहमासे यथा सुखम्। सुखादिरूपानियमम् भावेष्वालोक्य भूरिशः शुभाशुभे विहायास्माद् अहमासे यथा सुखम्। ॐ